किं कर्पूरमयं सुधारसमयं किं चन्द्ररुचिर्मयं किं लावण्यमयं महामणिमयं कारुण्यकेलीमयं विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं शुक्लध्यानमयं वपुर्जिनपतेर्भूयाद्भवालम्बनं पातालं कलयन् धरां धवलयन् आकाशमापूरयन् दिक्चक्रं क्रमयन् सुरासुरनर श्रेणिं च विस्मापयन् ब्रह्माण्डं सुखयन् जलानि जलधे फेनच्छलालोलयन् श्रीचिन्तामणिपार्श्वसम्भवयशो हंसशिरं राजते पुण्यानां विपणिस्तमो दिनमणिः कामेभ कुम्भे श्रीणिः मोक्षे निःसरणिः सुरेन्द्रकरणी ज्योतिः प्रकाशारिणी दानी देवमणिर्नतोत्तम जन श्रेणिः कृपासारिणिः विश्वानन्दसुधा घृणिर्भवभिदे श्रीपार्श्वचिन्तामणि श्रीचिन्तामणि पार्श्वविश्वजनता सञ्जीवनस्त्वं मया दृष्टस्तात् ततः श्रियः समभवन् नाशक्रमा चक्रिणम् मुक्तिः क्रीडति हस्तयोर्बहुविधम् सिद्धं मनोवाञ्छितं दुर्दैवं दुरितं च दुर्दिनभयं कष्टं प्रणष्टं मम यस्य प्रौढतमः प्रतापतपनः प्रोद्दामधामा जगज्जङ्घालः कलिकालकेलिदलनो मोहान्धविध्वंसकः नित्योद्योतपदं समस्तकमला केलीगृहं राजते स श्रीपार्श्वजिनो जनेहितकरश् चिन्तामणि पातु मां विश्वव्यापितमो हि नस्ति तरणिर्बालोऽपि कल्पाङ्कुरो दारिद्र्याणि गजावली हरिशिशुः काष्ठानि वह्ने कणः पीयूषस्य लवोऽपि रोगनिवहम् यद्वत्तथा ते विभो मूर्तिः स्फूर्तिमती सती त्रिजगति कष्टानि हर्तुं क्षमा श्रीचिन्तामणिमन्त्रमुङ्कृतियुतं ह्रिङ्कारसाराश्रितं श्रीमर्हं नमियोणपासकलितम् त्रैलोक्यवश्यावहं द्वेधाभूत विशापहं विषहरं श्रेयः प्रभावाश्रयं सोल्लासं वसहाङ्कितं जिनफुलिङ्गा नन्ददं देहिनां ह्रीं श्रीङ्कारवरं नमोऽक्षरपरम् ध्यायन्ति ये योगिनो हृत्पद्मे विनिवेश्य पार्श्वमधिपं चिन्तामणि संज्ञकं भाले वाम भुजे च नाभिकरयोर्भूयो भुजे दक्षिणे पश्चादष्टदलेषु ते शिवपदं द्वित्रैर्भवैर्यान्त्यहो नो रोगा नैव शोका न कलह कलना नारी मारी प्रचारा नैवाधिर्न समाधिर्न च दर्दुरिते दुष्ट दारिद्रतानो नो शाकिन्यो ग्रहानो न हरिकरिगणा व्यालवेताल जालः जायन्ति पार्श्वचिन्तामणि नतिवशतः प्राणिनां भक्तिभाजाम्। गीर्वाणद्रुम् धेनुकुम्भमणयस् तस्याङ्गणे रिङ्गिणो देवादानवमानवः सविनयम् तस्मै हितध्यायिनः। लक्ष्मीस्तस्य वशावशेव गुणिनाम् ब्रह्माण्डसंस्थायिनी श्रीचिन्तामणिपार्श्वनाथमनिशम् संस्तौति यो ध्यायति। इति जिनपतिपार्श्वः पार्श्वपार्श्वाख्ययक्षः प्रदलितदुरितौघः प्रीणितप्राणिसार्थः त्रिभुवनजनवाञ्छा दानचिन्तामणिकः शिवपदतरुबीजं बोधिबीजं ददातु। शिवपदतरुबीजं बोधिबीजं ददातु।